अथ श्रीशंकर भगवत्पादाचार्यस्तवः मुदाकरेण पुस्तकं दधानमीशरूपिणं तथा परेण मुद्रिकान्नमत्तमो विनाशिनीम् कुसुम्भवाससावृतं विभूतिभासि फालकम् नताघनाशनेरतं नमामि शंकरं गुरुं पराशरात्मजप्रियं पवित्रितक्षमातलम् पुराणसारवेदिनं सनन्दनादिसेवितम् प्रसन्नवक्त्रपङ्कजं प्रपन्नलोकरक्षकम् प्रकाशिताद्वितीयतत्त्वमाश्रयामि देशिकम् सुधांशुशेखरार्चकम् सुधीन्द्रसेव्यपादुकम् सुतादिमोहनाशकम् सुशान्तिदान्तिदायकम् समस्तवेदपारगम् सहस्रसूर्यभासुरम् समाहिताखिलेन्द्रियम् सदा भजामि शंकरम् यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकम् यमेव मुक्तिकांक्षया समाश्रयन्ति सज्जनाः नमाम्यहं सदा गुरुं तमेव शंकराभिधम् स्वबाल्य एव निर्भरय आत्मनोदयालुताम् दरिद्रविप्रमन्दिरे सुवर्णवृष्टिमानयन् प्रदर्श्य विस्मयाम्बुधौ न्यमज्जयत्समाञ्जनान् स एव शङ्करः सदा जगद्गुरुर्गतिर्मम यदीयपुण्यजन्मना प्रसिद्धिमापकालटी यदीयशिष्यतां व्रजन् सतोटकोऽपि पप्रथे य एव सर्वदेहिनां विमुक्तिमार्गदर्शकः नराकृतिं सदाशिवं तमाश्रयामि सद्गुरुम् सनातनस्य वर्त्मनः सदैव पालनायः चतुर्दिशासु सन्मठान् चकारलोकविश्रुतान् विभाण्डकात्मजाश्रमादि सुस्थलेषु पावनान् तमेव लोकशंकरं नमामि शंकरं गुरुं यदीय हस्तवारि जात सुप्रतिष्ठिता सती प्रसिद्ध श्रृंगभूधरे सदा प्रशांति भासुरे स्वभक्त पालन व्रता विराजते हि शारदा स शंकरः कृपानिधिः करोतु मामनेन सम् इमं स्तवं जगद्गुरोर्गुणानुवर्णनात्मकम् समादरेण यः पठेदनन्यभक्त ವ್ಯಕ್ತಿ ಸಂಯುತಃ ಸಮಾಪ್ನುಯಾತ್ ಸಮೀಹಿತಂ ಮನೋರಥಂ ನರೋಚಿರಾತ್ ದಯಾನಿಧೇ ಸ ಶಂಕರಸ್ಯ ಸದ್ಗುರೋಃ ಪ್ರಸಾದತಃ.